एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। सुदूरपश्चिम विश्वविद्यालयस्य विभिन्नानां संकायानां एकसहस्राणि शतत्रयं सप्तसप्ततिश्च छात्राः दीक्षिताः वर्तन्ते। विश्वविद्यालयस्य कुलपतिः प्रधानमन्त्री च केपी शर्मा ओली ह्यः विश्वविद्यालयस्य परिसरे आयोजिते समारोहे उत्कृष्टेभ्यः छात्रेभ्यः पदकानि पुरस्कारान् च प्रादात्। प्रधानमन्त्री ओली कैलाली जनपदस्य गेटा क्षेत्रे चिकित्सा विश्वविद्यालयस्य स्थापनायाः उद्देश्यानुसारेणैव कार्यम् अग्रेसारितमस्तीति असूचयत्। प्रधानमन्त्री केपी शर्मा ओली निगदति भ्रष्टाचार नियन्त्रणम् आर्थिक समृद्धि सुशासनञ्च सर्वकारस्य उच्च प्राथमिकतायां वर्तन्ते। धनगढ़ी नगरे सुदूरपश्चिम प्रदेश सभोपवेशम् ह्यः सम्बोधयन् प्रधानमन्त्री ओली नेपाली कांग्रेस नेकपा एमाले दलयोः सत्ता गठबन्धनम् आगामिनः निर्वाचनम् यावत् भवति त्यतः सहमतेरनुसारेणैव आगामि षोडश मासेभ्य अनन्तरम् नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा प्रधानमन्त्री भविष्यति इति अभाषत। प्रधानमन्त्री ओली धर्मस्य जातेश्च व्याजिन जनतां विभक्तुं प्रयासः जायमानोऽस्ति इति अगदत्। प्रधानमन्त्री ओली पञ्चेश्वर प्रभृतीनां विकासस्य आयोजनानां कृते महत्यः योजनाः सर्वकारेण अग्रेसारिताः विद्यन्ते इति अभाषत। प्रधानमन्त्री ओली समृद्धम् उन्नतम् च सुदूरपश्चिम प्रदेशम् निर्माय जनतायै वृत्ति उपार्जनस्य अवसरम् स्रष्टुम् देशस्य विकासम् समृद्धिम् च कर्तुम् च वर्तमान सर्वकारः प्रतिबद्धोऽस्ति इति प्रावोचत्। प्रधानमन्त्री ओली ह्य एव धनगढ़ी नगरसभा कक्षस्य उद्घाटनम् विहितवान् अस्ति। राष्ट्रियसभायाः ह्यस्तनोपवेशे राष्ट्रिय प्राकृतिक स्रोतवित्त आयोगस्य वार्षिकम् प्रतिवेदनम् प्रस्तुतमस्ति। उपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः आयोगस्य वार्षिकम् प्रतिवेदनम् सभासमक्षम् प्रास्तौत्। उपवेशे सभायाः अध्यक्षः नारायण प्रसाद दाहालः उपवेशस्य शून्ये विशेषे च समये सांसदैः उत्थापितेषु सामयिक विषयेषु सर्वकारस्य ध्यानम् आकृष्टवान्। अध्यक्षः दाहालः सांसदैः उत्थापितेषु शिक्षकाणाम् आन्दोलनस्य दलितानाम् आदिवासिनाम् जनजातीनाम् कृषकाणाम् समस्यानाम् सुशासनस्य सेवाप्रवाहस्य च विषयेषु सर्वकारस्य ध्यानाकर्षणम् विदधानः सभायाम् उपस्थाय उत्तरम् प्रदातुम् सर्वकारस्य मन्त्रिणाम् च ध्यानम् आकृष्टवान्। सांसदैः अन्तर्राष्ट्रिय महिला दिवसे मन्यमाने समाजे समीचीने सन्देशे प्रवाहितेऽपि सामाजिक संरचनया जायमानं पुत्री पुत्रयोः भेदं समापयितुं बलवतः विधेः आवश्यकता अस्ति इति उक्तं वर्तते। राष्ट्रियसभायाः अपरोपवेशः आगामिनः चैत्रमासस्य चतुर्थदिवसे सोमवासरे दिवासपादैकवादने वस्ता। अन्तर्राष्ट्रिय महिला न्यायाधीश दिवसस्य अवसरे अद्य काष्ठमण्डपे एतत् विक्रमवर्षीयम् महिला न्यायाधीश सम्मेलनम् आयोक्ष्यते। सम्मेलने पूर्व प्रधान न्यायाधीशः न्यायाधीशः सर्वोच्च न्यायालये उच्च न्यायालयेषु जनपद न्यायालयेषु च कार्यरताश्चेति कृत्वा आसन्नः षष्ठी न्यायाधीशः सहभागिनो भविष्यन्ति। सर्वोच्च न्यायालयस्य न्यायाधीशस्य सपना प्रधान मल्लस्य अनुसारेण सम्मेलने महिला न्यायाधीशानाम् अनुभवस्य कार्यगत काठिन्यस्य व्यवस्थापनस्य व्यावसायिक सामर्थ्यस्य अभिवृद्धेश्च विषयेषु विमृक्ष्यते। उपप्रधान नगरीय विकास मन्त्री प्रकाश मान सिंह भाषते देशे राजनैतिक स्थायित्वाय नेपाली कांग्रेस नेकपा एमाले दलयोः सर्वकार संघटितो वर्तते। ह्य भोजपुर नगरपालिकायाः चतुर्थ ओडा क्षेत्रस्य दावास्थाने विद्यमानस्य सिद्धेश्वर माध्यमिक विद्यालयस्य सप्तसप्ततितमे वार्षिकोत्सव समारोहे उपप्रधानमन्त्री सिंह देशस्य विकास निर्माणाय स्थायित्वाय च वर्तमान सर्वकारः क्रियाशीलो वर्तते इति अभाषत। गृहमन्त्री रमेश लेखकः विपत् संकट न्यूनीकरण व्यवस्थापनस्य अधिकारः प्रदेश सर्वकारेभ्यः हस्तान्तरितोऽस्ति इति सूचयति। सुर्खेत जनपदस्य वीरेन्द्र नगरे ह्य आयोजिते प्रादेशिका पत्कालिक भण्डारण गृहस्य हस्तान्तरण कार्यक्रमे गृहमन्त्री लेखकः विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य नीतेः निर्देशनस्य च अनुसारेण अधिकारोऽसौ हस्तान्तरितोऽस्तीति प्रावोचत्। अतः परं प्रदेश सर्वकारैः स्वयमेव विपदां व्यवस्थापनं करिष्यते, केन्द्रेण सह विमर्शनस्य आवश्यकता नास्तीति असौ असूचयत्। कार्यक्रमे कर्णाली प्रदेशस्य मुख्यमन्त्री यामलाल कडेलः संरचनाभिः सह सर्वेषाम् अधिकाराणामपि हस्तान्तरणं विधातव्यमिति उक्तवान् आसीत्। जाजरकोट जनपदस्य भेरी नगरपालिकायाः प्रथमोडा क्षेत्रस्य रिम्नास्थाने भूकम्पोत्तर पुनर्निर्माण पुनस्थापना योजना कार्यान्वयन कार्यालयस्य स्थापना विहिता अस्ति। भूकम्प प्रभावितानां जाजरकोट रूकुम पश्चिम सल्यान जनपदानां भूकम्प पीडितानां जनानां कृते कार्यालयस्य स्थापना विहिता अस्ति। गृहमन्त्री रमेश लेखकः ह्य कार्यालयस्य उद्घाटनं विहितवान् अस्ति। देशस्य पश्चात्तन राजनीतिक परिस्थितिं दृष्ट्वा नेकपा माओवादी केन्द्रेण सहायक राजमार्ग केन्द्रितं तराई मधेश जागरणाभियानं स्थगितीकृतं वर्तते। फाल्गुन मासस्य द्वादशात् दिवसात् झापा जनपदस्य कचन कवल स्थानात् प्रारब्धम् अभियानं पश्चात्तन राजनीतिक परिस्थितिम् अवलोक्य अभियानस्य विषये अतिरिक्तं विमृश्य च अतिरिक्त कार्यक्रम निर्धारयिष्यते इति माओवादी केन्द्रस्य उपाध्यक्ष प्रवक्ता स अग्निप्रसाद सापकोटा अज्ञापयत्। प्रवक्ता सापकोटा आगामिन चैत्र मासस्य प्रथम सप्ताहे पुन अभियानं संचालयिष्यते इति च असूचयत्। यातायात व्यवस्थापन प्रहरिणा स्कूटर यानस्य चौर्य कार्य संलग्नतायाः आरोपे जनद्वयं निगृहीतं वर्तते। काष्ठमण्डप उपत्यका यातायात व्यवस्थापन प्रहरी कार्यालयस्य समूहेन काष्ठमण्डपस्य तारकेश्वर स्थानात् स्कूटर यानस्य चौर्य कार्य संलग्नौ सिन्धुपाल्चोक जनपदस्य बारविसे स्थानस्य विंशति वर्षीय सनीश श्रेष्ठ, रूकुम पूर्व जनपदस्य अष्टादश वर्षीय सुशान्त बुढा मगर च प्रहरिणा निगृह्य ह्य सार्वजनिकृतौ स्तः। हेटौडा उपमहानगरपालिकायाः त्रिषु ओडा क्षेत्रेषु कृषकै पालितेषु शुकरेषु प्रसृतः अफ्रिका देशीय ज्वरः नियन्त्रितोऽस्ति। पशुसेवा कार्यालयेन प्रभावितेषु ओडा क्षेत्रेषु कीटनाशकौषधस्य सेचनेन स्वच्छीकरणाच्च शुकराणां नयनानयने कठोरतायाः अवलम्बनेन सावधानतामूलक कार्यक्रमस्य सञ्चालनेन च शुकरेषु दृष्टः अफ्रिका देशीय स्वाइन ज्वरः नियन्त्रितोऽस्ति। हेटौडा उपमहानगरपालिकायाः प्रथमे सप्तदशे एकादशे च ओडा क्षेत्रेषु कृषकैः पालिताः शतद्वयादपि अधिकाः शुकराः ज्वरेणानेन मृताः आसन्।